ॐ नमो भगवते वासुदेवाय। अथ चतुर्दशोऽध्यायः। मैत्रेय उवाच। भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः, गोप्तर्यसति वैन्द्रीणां पश्यन्तः पशुसाम्यताम्। वीरमातरमाहूय सुनीथां ब्रह्मवादिनः, प्रकृत्य सम्मतं वेनमभ्यषिञ्चन् पतिं भुवः। श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम्, निरिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः। सारूढनृपस्थान उन्नद्धोष्टविभूतिभिः, अवमेने महाभागान् स्तब्धसम्भावितः स्वतः। एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः, पर्यटनरथमास्थाय कम्पयन्निव रोदसी। न यष्टव्यं न दातव्यं न होतव्यं द्विजः क्वचित्, इति न्यवारयद्धर्मं भेरीघोषेण सर्वशः। वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम्, विमृश्य लोकव्यसनं कृपयोचुस्म सत्रिणः। अहो उभयत प्राप्तं लोकस्य व्यसनं महत्, दारुण्युभयतो दीप्त इव तस्करपालयोः। अराजकभयादेश कृतो राजा तदर्हणः, ततोऽप्यासीद्भयं त्वद्य कथं स्यात् स्वस्ति देहिनाम्। अहेरिव पयः पोषः पोषकस्याप्यनर्थभृत्, वेन प्रकृत्यैव खलः सुनीथा गर्भसम्भवः। निरूपितः प्रजापालः सजिघांसति वै प्रजाः, तथापि सान्त्वये मामुं नास्मांस्तत्पातकं स्पृशेत्। तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः, सान्त्वितो यदि नोवाचं न ग्रहीष्यत्यधर्मकृत्। लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा, एवमध्यवसायैनं मुनयो गूढमन्यवः। उपव्रज्या ब्रुवन्वेनं सान्त्वयित्वा च सामभिः, मुनय ऊचुः, नृपवर्यनिबोधै तद्यत्ते विज्ञापयाम भोः। आयुश्रीबलकीर्तीनां तव तातविवर्धनं, धर्माचरितपुंसां वाङ्मनःकायबुद्धिभिः, लोकान् विशोकान् वितरत्यथानन्त्यमसङ्गिनां। सते मा विनशेद्वीर प्रजानां क्षेमलक्षणः, यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति। राजन्न साध्वमात्येभ्यश्चोरादिभ्यः प्रजानृपः, रक्षन् यथा बलिं गृह्णन्निह प्रेत्य च मोदते। यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपुरुषः, इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः। तस्य राज्ञो महाभाग भगवान् भूतभावनः, परितुष्यति विश्वात्मा तिष्ठतो निजशासने। तस्मिन् स्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे, लोकाः सपाला ये तस्मै हरन्ति बलिमादृताः। तं सर्वलोकामरयज्ञसङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयं, यज्ञैर्विचित्रैर्यजतो भवायते राजन् स्वदेशाननुरोद्धुमर्हसि। यज्ञेन युष्मद्विषये द्विजातिभिर्वितायमानेन सुराः कलाहरेः, स्विष्टाः सुतुष्टाः प्रतिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीरचेष्टितुम्। वेन उवाच, बालिशाबत यूयं वा धर्मे धर्ममानिनः, ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते। अवजानन्त्यमी मूढा नृपरूपिणमीश्वरं, नानुविन्दन्ति ते भद्रमिह लोके परत्र च। को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी, भर्तृस्नेहविदूराणां यथा जार्ये कुयोषिताम्। विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः, पर्जन्यो धनदः सोमः क्षितिरग्निरपां पतिः। एते चान्ये च विबुधाः प्रभवो वर्षापयोः, देहे भवन्ति नृपतेः सर्वदेवमयो नृपः। तस्मान् मां कर्मभिर्विप्रा यजध्वं गतमत्सराः, बलिं च मह्यं हरत मत्तोऽन्यः कोग्रभुक्पुमान्। मैत्रेय उवाच, इत्थं विपर्ययमति पापीयानुत्पथं गतः, अनुनीयमानस्तद्याच्यां न चक्रे भ्रष्टमङ्गलः। इति ते सत्कृतास्तेन द्विजः पण्डितमानिना, भग्नायां भव्ययाच्यायां तस्मै विदुरचुक्रुदुः। हन्यतां हन्यतामेष पापः प्रकृतिदारुणः, जीवञ्जगदसावासु कुरुते भस्मसाध्रुवम्। नायमर्हत्य सद्वृत्तो नरदेववरासनं, योधि यज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः। को वैनं परिचक्षीत वेनमेकमृते शुभम्, प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः। इत्थं व्यवसिता हन्तु मृषयो रूढमन्यवः, निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया। ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरं, सुनीथा पालयामास विद्यायोगेन शोचति। एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुताः, हुत्वा अग्निन् सत्कथाश्चक्रुरुपविष्टा सरित्तटे वीक्ष्योत्थितांस्तदोत्पाता नाहुर्लोकभयङ्करान् अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुवः एवं ऋषन्त ऋषयो धावतां सर्वतो दिशम् पांसो समुत्थितो भूरिश्चौराणामभिलुम्पताम् तदुपद्रवमाज्ञाय लोकस्य वसुलुम्पताम् भर्तर्युपरते तस्मिन्नन्योन्यम् च जिघांसताम् चोरप्रायम् जनपदम् हीनसत्त्वमराजकम् लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिनः ब्राह्मण समदृक्षान्तोर्दीनानाम् समुपेक्षकः श्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः विनिश्चित्यैव ऋषयो विपन्नस्य महीपतेः ममन्थुरूरुम् तरसा तत्रासीत् बाहुको नरः काककृष्णोतिरस्वाङ्गो ह्रस्वबाहुर्महाहनुः ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः तम् तु ते वनतम् दीनम् किम् करोमीति वादिनम् निषीदेत्य ब्रुवन्स्तात स निषादस्ततोऽभवत् तस्य वंश्यास्तु नैषादा गिरिकानन गोचराः येनाहरज्जायमानो वेन कल्मषमुल्बणम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे पृथुचरिते निषादोत्पत्तिर्नाम चतुर्दशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।